अथ षष्ठः पाठः। अयोध्याया निर्गत्य रामो लक्ष्मणस्सीता च प्रथमं चित्रकूटे नाम गिरौ स्थितं वाल्मीकिराश्रममागच्छन् तत्र ऋषेरन्तिकमवसन्। अत्रान्तरे दशरथो नृपतिर्मृतः, भरतस्तु युवराजोऽपि न राज्यमनुभ्यत्। ततो नगरमत्यजत् रामं चान्विच्छति स्म। अचिन्तयत् रामो भूपतिर्भवत्विति धर्मः।